राम गीता जी का पाठ छठा अध्याय श्लोक 31 से 39 तक। राम
वसुदेव सुचन्देव पंचजानोरमयजनम् देवकी परमानन्दम् कृष्णं वन्दे जगद्गुरुम् सर्वभूतस्य संयोगम् जगत्येकत्वमाश्रित सर्वथावर्तमानोऽपि सहयोगी मयि वर्तते आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन सुखं वा यदि वा दुःखं स योगी परमो मतः। अर्जुन उवाच योऽयं योगस्त्वया प्रोक्त साम्येन मधुसूदन एतस्याहं न पश्यामि चञ्चलस्वस्थितिं स्थिराम् चञ्चलं हि मनः कृष्ण समाधि बलवद्दृढम् तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम्। श्रीभुवनुवच असंशयं महाबाहो मनो दुर्निग्रहं चलम् अभ्यासेन सुकौन्तेय वैराग्येन च गृह्यते असंयदात्मना योगो तुष्टाप इति मे मते वश्यात्मना तु यतुता शक्यो वाप्तुमुपायत। अर्जुन उवाच अयति श्रद्धयोपेतु योगाचलितमानस अप्राप्य योगसंसिद्धिं कां गति कृष्ण गच्छति कश्चिन्नो भयविभ्रष्ट सुन्नाभ्रमेव नश्यति अप्रतिष्ठो महाबाहो निमूढो ब्रह्मणपति एतन्मे संशयं कृष्ण हेतुमारस्य शेषत त्वदन्यः संशयस्यास्य चित्त नह्युपपद्यते एतन्मे संशयं कृष्ण हेतुमारस्य शेषत त्वदन्यः संशयस्यास्य चित्त नह्युपपद्यते। वसुदेव सुचन्देवम् पंचजानोरमर्दनम् देवकी परमानन्दम् कृष्णं वन्दे जगद्गुरुम् कृष्णं वन्दे जगद्गुरुम्
हरिशरणम् 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 हरे शरणम् हरि शरणम् हरि शरणम् हरि शरणम् हरे शरणम् हरि शरणम् हरि शरणम् हरि शरणम् हरे शरणम् हरि शरणम 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 हरि शरणम।